अन्वियेश सदृशीं स च स्नुषां प्राप चैनमनुकूलवाग्द्विजः सद्य एव सुकृतां हि पच्यते कल्पवृक्षफलधर्मिकाङ्क्षितम्।
अन्वियेशेति सः दशरथश्च सदृशीम् अनुरूपां स्नुषाम् अन्वियेष रामविवाहम् आचकाङ्क्ष इत्यर्थः। अनुकूलवाक् स्नुषासिद्धिरूपानुकूलार्थवादी द्विजः जनकपुरोधाश्च एनम् दशरथम् प्राप तथा हि कल्पवृक्षफलस्य यः धर्मः सद्यःपाकरूपः सः अस्य अस्ति इति कल्पवृक्षफलधर्मी, अतः सुकृतां पुण्यकारिणां कांक्षितं मनोरथः सद्यः एव पच्यते हि कर्मकर्तरि लट् स्वयमेव पक्वं भवतीत्यर्थः। कर्मवत् कर्मणा तुल्यक्रियः इति कर्मवद्भावात् भावकर्मणोः इत्यात्मनेपदम्।
तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान् वचनमग्रजन्मनः उच्चचालबलभित्सखो वशी सैन्यरेणुमुषितार्कदीधितिः।
तस्येति बलभित्सखः इन्द्रसहचरः वशी स्वाधीनतावान् वश आयत्ततायां च इति विश्वः कल्पितपुरस्क्रियाविधेः कृतपूजाविधेः तस्य अग्रजन्मनः द्विजस्य वचनम् जनकेन सन्दिष्टम् शुश्रुवान् श्रुतवान् शृणोतेः क्वसुः सैन्यरेणुमुषितार्कदीधितिः सन् उच्चचाल प्रतस्थे।
आससादमिथिलां सवेष्टयन् पीडितोपवनपादपाम्बलैः प्रीतिरोधमसहिष्टसा पुरी स्त्रीवकान्तपरिभोगमायतम्।
आससादेति सः दशरथः बलैः सैन्यैः पीडितोपवनपादपां मिथिलां वेष्टयन् परिघीकुर्वन् आससाद सा पुरी स्त्रीयुवतिः आयतम् अतिप्रसक्तम् कान्तपरिभोगम् प्रियसंभोगम् इव प्रीत्या रोधम् प्रीतिरोधम् असहिष्ट सोढवती द्वेषरोधम् तु न सहते इति भावः।
तौ समेत्य समये स्थितावुभौ भूपती वरुणवासवोपमौ कन्यकातनय कौतुकक्रियाम् स्वप्रभावसदृशीं वितेनतुः।
ताविति समये स्थितौ आचारनिष्ठौ समयाश्चपथाचार कालसिद्धान्तसंविदः इत्यमरः वरुणवासवौ उपमानं ययोस्तौ तथोक्तौ तावुभौ भूपती जनकदशरथौ समेत्य स्वप्रभावसदृशीम् आत्ममहिमानुरूपां कन्यकानां सीतादीनां तनयानां रामादीनां च कौतुकक्रियां विवाहोत्सवं वितेनतुः विस्तृतवन्तौ तनोतेर्लिट्।
पार्थिवीमुदवहद्रघुद्वहः लक्ष्मणस्तदनुजामथोर्मिलाम् यौतयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे।
पार्थिवीमिति उद्वहतीति उद्वहः पचाद्यच् रघूणाम् उद्वहः रघुद्वहः रामः। पृथिव्याः अपत्यम् स्त्री पार्थिवी तस्यापत्यम् इति अण् टिड्ढाणै इत्यादिना ङीप् ताम् सीताम् उदवहत् परिणीतवान् अथ लक्ष्मणः तस्याः सीतायाः अनुजाम् जनकस्य औरसीम् ऊर्मिलाम् उदवहत् यौ वरौजसौ तयोः रामलक्ष्मणयोः अवरजौ अनुजातौ भरतशत्रुघ्नौ तौ सुमध्यमे कुशध्वजस्य जनकानुजस्य सुते कन्यके मांडवीं श्रुतकीर्तिं च उदवहताम् नात्र व्युत्क्रमविवाहदोषः भिन्नोदरत्वात् तदुक्तम् पितृव्यपुत्रे सापत्न्ये परनारी सुतेषु च विवाहाधान यज्ञादौ परिवेत्राद्यदूषणम् इति।
ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः सामदानविधिभेदविग्रहाः सिद्धिमन्त इव तस्य भूपतेः।
त इति ते चतुर्थसहिताः त्रयः चत्वारः इत्यर्थः। वृत्तानुसारात् एवमुक्तम्। सूनवः नववधूपरिग्रहाः सिद्धिमन्तः फलसिद्धियुक्ताः तस्य भूपतेः दशरथस्य सामदानविधिभेदनिग्रहाः चत्वारः उपायाः इव बभूः। विधीयते इति विधिः, दानमेव विधिः, निग्रहः दण्डः। सूनूनाम् उपायैः वधूनां सिद्धिभिश्च औपम्यम् इति अनुसन्धेयम्।